अथ श्रीजगन्नाथ नवकम् पारावारपतिः पुरी पुरपतिः सौभाग्यलक्ष्मीपतिः श्रीक्षेत्राधिपतिर्महेश्वरपतिर्मायापतिर्भूपतिः श्रीवैकुण्ठपतिर्जगज्जनपतिर्माधुर्यलीलापतिः दारुब्रह्मपतिर्महामखपतिक् कुर्यात् सदा मङ्गलम् हे नारायण हे जगज्जयकृते हे विश्वबन्धो प्रभो हे वैकुण्ठसनातनग्रहपते हे रामनारायण हे नीलाचलनायकप्रवण हे श्रीजगन्नाथ मां हे राधाधव पाहि पाहि सततं वन्दामि नन्दात्मजम् गोलाकाराक्षयुक्ता निखिलमणिमयि हेमभूषाङ्गशोभा श्यामा कामाभिरामा स्वजनसहरता प्रेमधारा वहन्ती या सा संसारसारा श्रितजनविषया ब्रह्मरूपा प्रसन्ना पायात् सम्भ्रान्तनीला चलभुवनसुखा श्रद्धरा दारुमूर्तिः स्वर्णालङ्कृतदिव्यदारुरसिकं श्रीमन्दिराधीश्वरं विश्वानन्दतनु विकाररहितं पुर्यां महासौरभं भक्तिप्रेमधनं ददाति परमल्लावण्यलक्ष्मीजुषं श्रीनीलाद्रिमहोदयं प्रतिदिनं सौन्दर्यसारं भजे पक्षीन्द्रासीनमञ्चं सकलमणियुतै योगमायासमेतं शङ्खैचक्रं गदाब्जं प्रबलबलयुतं बाहुभिस्सन्दधानम् लावण्यं मर्त्यलोके नयनसुखकरं पीतपट्टाम्बराढ्यल् लक्ष्मीनारायणाख्यन् निरुपम युगलं दिव्यदेहन्नमामि माधुर्यसाररससारसुखैकसारं वेदान्तसारसुरसारविदग्धसारं पीयूषसारघनसारसुशीतसारम् श्रीक्षेत्रसारहरिसारसुसारमीडे शुद्धं बुद्धमबद्धमव्ययमजन् दान्तं प्रशान्तं महक् कान्तं सन्ततमन्तकारिमनघो दन्तं महान्तं परम् नित्यं निर्मलमेकमाद्यमजडं సత్యావబోధాత్మకం వందేతం కమలాపతిం ప్రతిదినం నీలాద్రిచూడామణిం. హే శీతల ప్రియ హరే కరుణావతార, సౌభాగ్యదారు సుఖకారు కళాభితప్త, శ్రీమందిరేశ నితరాం తులసీదళేస్మిన్ పత్రం లిఖామి పఠ మాధవ పక్షి పత్ర. యోగేన భోగ సకలేషు సుఖేషు నిత్యం త్వన్నామ ధామ విషయే క్వచిదస్తి దృష్టిః. బ్రహ్మాండనాథ తవ గౌరవ సౌరభాయ చేష్టా కదా భవతి సా భవితా సుబుద్ధిః. ఓం సర్వం శ్రీ జగన్నాథ.